इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य बिहारस्य दरभंगायां प्रायः एकशतोत्तर द्वादशसहस्र कोटिरूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनम् आधारशिलास्थापनं राष्ट्राय समर्पणं च करिष्यति। क्षेत्रे स्वास्थ्य संरचनां प्रवर्धयितुं प्रधानमन्त्री षष्ठ्योत्तर द्वादशशत कोटिरूप्यकाणां मूल्यात्मकस्य दरभंगा एम्स चिकित्सालयस्य आधारशिलां स्थापयिष्यति। अस्मिन् विशिष्ट चिकित्सालये आयुषखण्डः, चिकित्सामहाविद्यालयः, नर्सिंग महाविद्यालयः, रात्रि आश्रयः, अन्येषां च आवासीय सौविध्यानां समावेशो भविष्यति। श्रीमोदी बिहारे प्रायः सप्तत्योत्तर पञ्चसहस्रकोटिरूप्यकाणां राष्ट्रिय राजमार्ग परियोजनानां उद्घाटनं आधारशिलां च स्थापयिष्यति। झारखण्डीय विधानसभा निर्वाचनाय प्रथमचरणात्मिका सन्नद्धता सज्जतास्ति। अद्य चरणेऽस्मिन् त्रिचत्वारिंशद् आसनेभ्यः मतदानं भविष्यति। मतदानं सप्तवादनादारभ्य सायं पञ्चवादनं यावत् प्रचलिष्यति। द्वितीयचरणस्य मतदानम् अस्यैव मासस्य विंशति तारिकायाम् अष्टत्रिंशद् आसनेभ्यः भविष्यति। मतगणना च नवम्बरमासस्य त्रयोविंशे दिनांके भविष्यति। झारखण्डप्रदेशस्य मुख्यनिर्वाचनाधिकारिणा श्री के रविकुमारेण प्रोक्तं यद् विधानसभानिर्वाचनस्य घोषणानन्तरं राज्यस्य विभिन्नेभ्यः भागेभ्यः नवसप्तत्युत्तरैकशतकोटितोप्यधिकरूप्यकात्मकमूल्यानाम् अवैधानिकसामग्र्यः धनानि च निगृहीतानि सन्ति। तावन् एनडीए इत्याख्यः राष्ट्रियलोकतान्त्रिकसङ्घः आईएनडीआईए इति च दलसमूहः सम्प्रति तत्र स्वकीयं ध्यानं केन्द्रीकुरुतस्तः यत्र द्वितीयचरणीयमतदानं सम्भावितास्ति। महाराष्ट्रविधानसभायाः नैर्वाचनिकप्रचारोपक्रमः अपि उत्तुङ्गतां भजते। विभिन्नानां राजनीतिकदलानां वरिष्ठाः नेतारः मतदातॄन् समाकृष्टुं सर्वविधयत्ने रताः सन्ति। भाजपेति दलस्य वरिष्ठनेता प्रधानमन्त्री च नरेन्द्रमोदी ह्यः महाराष्ट्रस्य तीव्रविकासयुति प्रशासनस्य प्रशंसां कृतवान्। चन्द्रपुरजनपदस्य चिमूर इति क्षेत्रे एकां नैर्वाचनिकजनसभां सम्बोधयता श्रीमोदिना भणितं यत् अयं महायुतिप्रशासनस्य सत्प्रयासानां परिणामः अस्ति यत् गतद्वाभ्यां वर्षाभ्यां महाराष्ट्रप्रदेशः सर्वाधिकतया प्रत्यक्षविदेशधननिवेशे सक्षमतमः अभवत्। श्रीमोदिना भाजपेति दलस्य घोषणापत्रस्य प्रशंसां कुर्वता उक्तं यत् एआई विश्वविद्यालयः, जलग्रिड इति परियोजनाः, आवासयोजनाः, नलिकाजलसम्पर्कजालः आद्यः महत्वाधायिन्यः घोषणाः महाराष्ट्रस्य उज्ज्वलभविष्याय लाभकारिण्यः सन्ति इति। डीआरडीओ इति रक्षा अनुसंधान विकास संघटनेन ह्यः ओडिशाटटस्य समीपस्थे चन्दीपुरनगरस्य एकीकृत परीक्षणकेन्द्रात् व्यापकदूरिपर्यन्तं भू आक्रमण क्रूज प्रक्षेपास्त्रस्य प्रथम उड्डयन परीक्षणं मोबाइल आर्टिक्युलेटेड लॉन्चर इत्यनेन यानेन कृतम्। परीक्षणस्य समये सर्वाणि उपतन्त्राणि अपेक्षानुसारं कार्याणि कृतवन्तः। प्राथमिक अभियानस्य उद्देश्यं च पूर्णं जातम्। रक्षामन्त्री राजनाथसिंहः सफल प्रथम विमानपरीक्षणे सम्मिलितानां डीआरडीओ सशस्त्र सेना उद्योगानां च प्रशंसाम् अकरोत्। हॉकीक्रीडायां भारतेन दक्षिणकोरिया विरुद्धं द्वन्द्वं 3-2 इत्यंकान्तरालेन विजितम्। भारत दक्षिण अफ्रीका देशयोः मध्ये 20-20 क्रिकेट क्रीडास्पर्धायाः तृतीयं द्वन्द्वम् अद्य सुपर स्पोर्ट पार्क सेंचुरियन नगरे क्रीडिष्यते। इति वार्ताः।